अथ द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् पुनर्भवाय संस्कारान् अविद्यानिवृतस्त्रिधा अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः विज्ञानं सन्निविशते संस्कारप्रत्ययं गतौ सन्निविष्टेऽथ विज्ञाने नामरूपं निषिच्यते निषिक्ते नामरूपे तु षडायतनसम्भवः षडायतनमागम्य संस्पर्शः सम्प्रवर्तते चक्षुः प्रतीत्यरूपं च समन्वाहारमेव च नामरूपं प्रतीत्यैवं विज्ञानं सम्प्रवर्तते सन्निपातस्त्रयाणां यो रूपविज्ञानचक्षुषां स्पर्शः स तस्मात् स्पर्शाच्च वेदना सम्प्रवर्तते वेदना प्रत्यया तृष्णा वेदनार्थं हि तृष्यते दृश्यमाण उपादानम् उपादत्ते चतुर्विधम् उपादाने सति भव उपादातुः प्रवर्तते स्याद्यद्यनुपादानो मुच्येत न भवेद्भवः पञ्चस्कन्धः स च भवः भवाज्जातिः प्रवर्तते जरामरणदुःखादि शोकः सपरिदेवनः दौर्मनस्य मुपायासा जातेरेतत् प्रवर्तते केवलस्यैवमेतस्य दुःखस्कन्धस्य सम्भवः संसारमूलान् संस्कारान् अविद्वान् संस्करोत्यतः अविद्वान् कारकस्तस्मान् न विद्वांस्तत्त्वदर्शनात् अविद्यायां निरुद्धायां संस्काराणाम् असम्भवः अविद्याया निरोधस्तु ज्ञानेनस्यैव भावनात् तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते दुःखस्कन्धः केवलोऽयम् एवं सम्यग् निरुध्यते दुःखस्कन्धः केवलोऽयम् एवं सम्यग् निरुध्यते